एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। अर्जेण्टिनादेशम् पराजित्य पादकन्दुक क्रीडायाम् यूरोपीय संघस्य विजेत्रा स्पेन देशेन षोडश वर्षाणाम् अनन्तरम् पादकन्दुक क्रीडायाः एतत् ख्रीष्टवर्षीय फिफा विश्वकप इत्याख्यो विश्वस्तरीय प्रतियोगितायाः उपाधि विजितो वर्तते। स्पेन देशेन एतत्पूर्वम् 10-2000 ख्रीष्टवर्षे उपाधिरसौ विजितः आसीत्। अमेरिकादेशस्य न्यूयॉर्कवर्तिन्याम् न्यूजर्सी पादकन्दुक रंगशालायाम् गतरात्रौ अद्य क्रीडितायाम् क्रीडायाम् निर्धारितासु 90 कलासु उभयपक्षतः केनापि देशेन लक्ष्यप्रहाराय सफलताया प्राप्तेः अभावानन्तरम् क्रीडा अतिरिक्त समये गतासीत्। अतिरिक्त समयस्य प्रारम्भे एव स्पेनदेशस्य फेरान टोरेज इत्यनेन लक्ष्यप्रहारविहितः आसीत्। टोरेज इत्यनेन क्रीडाया षडुत्तरैकशततम कलायाम् लक्ष्यप्रहारम् कृत्वा अर्जेण्टिनादेशस्य विरुद्धे एकेन अंकेन अग्रताधिगता आसीत्। तत्पश्चात् क्रीडायाम् केनापि जनेन लक्ष्यप्रहाराय सफलता नाधिगता इत्यतः स्पेनदेशेन अर्जेण्टिनादेशः शून्यस्य उत्तरे एकेन अंकेन पराजितो वर्तते। क्रीडाया कृते निर्धारितासु 90 कलासु एन्जो फर्नाण्डेज इत्यनेन द्वितीयवारम् पीतप्रपत्रस्य प्राप्तेः पश्चात् अर्जेण्टिनादेश 10 एव क्रीडकेषु सीमितीभूता आसीत्। उपान्त्यक्रीडायाम् अर्जेण्टिनादेश इंग्लैण्डदेशम् एकस्य उत्तरे 12 लक्ष्यप्रहारम् कृत्वा स्पेनदेशश्च फ्रांसदेशम् शून्यस्य उत्तरे 12 लक्ष्यप्रहारम् कृत्वा प्रतियोगितायाः अन्तिमक्रीडायाम् प्राप्तौ आस्ताम्। जलवायु वातावरण विज्ञान विभागेन अनुमितमिव जलविप्लवादिनाम् संकटः अविद्यमानः सन्नपि देशस्य विभिन्न जनपदानाम् लघ्वाकारकनदीषु आकस्मिक जलप्लवानाम् संकटः विद्यमान एव वर्तते इत्यतः सावधानताम् अवलम्बितुम् सर्वे नागरिकाः अनुरुद्धाः वर्तन्ते। विभागस्य जलविप्लवविद् सौहार्द जोशी वृष्टेः पूर्वानुमानस्यैव एकस्मिन्नेव क्षेत्रे एकीकरणस्य अपेक्षया वृष्टिजवायोः बहुत्र प्रसरणस्य कारणेन अनुमितमिव जलप्लवादीनाम् संकटः दृष्टो नास्तीति सूचितवान् वर्तते। अत्रान्तरे राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन उच्चैः संकटयुतेषु जनपदेषु रात्रौ यातायात साधनानां संचालनं निषिद्धमस्ति चेत् पूर्वकार्याणां गतिविधयः सशक्ताः विहिताः वर्तन्ते। अविरलवृष्टेः कारणेन देशस्य विभिन्न भागेषु जलविप्लवादीनाम् भूस्खलनादीनाम् च पश्चात् विभिन्नाः राजमार्गाः प्रभाविताः वर्तन्ते। नेपाल प्रहरीण अनुसारेण खुर्कोट नेपालथोक कटुञ्जेबेसी कान्ति लोकपथ मेची राजमार्ग साल झण्डी ढुरपाटन अरण्यको राजमार्गाः भूस्खलनानाम् पश्चात् प्रभाविताः सन्ति चेत् कतिपय मार्गाः अवरुद्धाः वर्तन्ते। एवमेव बागलुङ जनपदस्य जैमिनी नगरपालिकायाः अष्टमवडा क्षेत्रस्य बेलबगर स्थाने भूस्खलनानन्तरम् कालीगण्डकी तटीय मार्गः अवरुद्धो वर्तते। अत्रान्तरे राष्ट्रिय गौरवस्य कालीगण्डकी तटीय मार्गायोजनायाः अन्तर्गत बेनीजोमसोम कोरला मार्ग रात्रे समये पिहितो वर्तते। राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन मुस्ताङ जनपदात् प्रवहमानया कृष्णा गण्डकी नद्या सहितासु लघ्वाकारक खोला नदीषु जलस्तरस्य आकस्मिक रूपेण वर्धनस्य उच्च संकटस्य पूर्वानुमानानन्तरम् सावधानताम् अवलम्बितुम् मार्गोऽसौ पिहितो वर्तते। प्रतिनिधिसभायाः अन्तर्गतया विधि न्याय मानवाधिकार समित्या बाल सुधार गृहेषु विद्यमानानाम् बालबालिकानाम् मानवाधिकाराणाम् सुनिश्चयनाय कार्ययोजनाम् आनेतुम् सर्वकारः निर्दिष्टो वर्तते। समिते ह्य उपविष्टे उपवेशे बाल सुधार गृहेषु विद्यमानानाम् बालबालिकानाम् मानवाधिकारै सह सम्बद्धानाम् विषयाणाम् निरीक्षणस्य अवलोकनस्य उपसमितितः समितौ प्रस्तुतस्य प्रतिवेदनस्य च सम्बद्ध मन्त्रालयै सह विमर्शनस्य पश्चात् सर्वकाराय एवम् निर्देशनम् प्रदत्तम् वर्तते। राष्ट्रपति रामचन्द्र पौडेलः निगदति विकास निर्माणयो केन्द्रे प्रकृति मानवश्च संस्थापनीयौ। नियर्स एसोसिएशन इत्याख्याया स्थपति सम्बद्ध संस्थाया चतुष्षष्टितमस्य वार्षिकोत्सवस्य अवसरे पूर्वेद्युः काष्ठमण्डपे आयोजिते कार्यक्रमे राष्ट्रपति पौडेलः विकासस्य अवधारणा जनतायाः कल्याणेन देशस्य समृद्ध्या च सह योजनीया इत्युक्तवान्। राष्ट्रपति पौडेलः भौगोलिक रूपेण जटिलाय प्राकृतिक स्रोतोभिः युक्ताय अस्माकं देशाय सबल पर्यावरण मैत्रीयुक्तस्य पूर्वाधारस्य आवश्यकता अस्ति इति चर्चयन् देशस्य समक्षं जलवायु परिवर्तनं गभीर समावय रूपेण स्थितम् अस्ति इति प्रावोचत्। नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा निगदति सुशासनम् केन्द्रे संस्थाप्य संविधान संशोधनस्य विमर्शनम् अग्रे वर्धनीयम्। कास्की जनपदीयेन प्रजातान्त्रिक विचार समाजेन ह्य पोखरा स्थाने आयोजितायाम् संविधान संशोधनाय परामर्शनानि इति विषयिण्याम् गोष्ठ्याम् सभापति थापा नेपाल सदृशे देशे संसदा कार्यकारी प्रमुखस्य चयनस्य शासकीय स्वरूपम् मिश्रित निर्वाचन प्रणाली एव च उपयुक्त ते भवता इति विचारं व्यक्तवान् इति समाचाराः।